Hi Ram, we will start the class for this evening. Today we will be learning the 11th and the final Anuvaka of Namakam. Start with Sahasrani Sahasrasho. We will all chant Gananamtva together.
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रृण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या सहस्रयो जनेव धन्वानि तन्मसि अस्मिन् महत् ज्ञवेन्तरिक्षे अस्मिन् महत्यज्ञवेन्तरिक्षे भव अधि नीलग्रीवाशितिकण्ठा दिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा ये भूतानामधिपतयो विशिखाशक्रवर्तिनः ये अन्येषु विविध्यन्ते ये अन्येषु विविध्यन्ते आत्रेषु पिबतो जनान ये पथां पथिरक्षय अयव्युधः ये तीर्थानि प्रचरन्ति श्रीकावन्तो निषङ्गिणः एतावन्तश्च भूयागुंसश्च दिशो रुद्रापितस्थिरे तेषागुं सहस्रयो जनेव धन्वानि तन्मसि नमो रुद्रेभ्यो वातो वर्षमिषवः तेभ्यो दश प्राचीः दशदक्षिणा दश प्रतीचीः दशोदीचीः दशोर्ध्वाः तेभ्यो नमस्ते नो मृणयन्तु तेयं द्विष्मो यश्च
Next is this most important mantra called the Mahamrityunjaya mantra.
Trayam Trayambakam Yajamahe Sugandhim Pushtivardhanam उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो विश्वा भुवनात् विवेश
यो रुद्रो विश्वा भुवनात् विवेश
यो रुद्रो विश्वा भुवनात् विवेश तस्मै रुद्राय नमो अस्तु
तस्मै रुद्राय नमो अस्तु तस्मै रुद्राय नमो अस्तु
येते सहस्रमयुतं पाशा
येते सहस्रमयुतं पाशा
येते सहस्रमयुतं पाशा
मृत्यो मर्त्याय हन्तवे
मृत्यो मर्त्याय हन्तवे
मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया
तान् यज्ञस्य मायया
सर्वानवयजामहे
सर्वानवयजामहे सर्वानवयजामहे
मृत्यवे स्वाहा मृत्यवे स्वाहा
मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा
ग्रन्थिरसि
प्राणानां ग्रन्थिरसि प्राणानां ग्रन्थिरसि
रुद्रो मा विशान्तकः
रुद्रो मा विशान्तकः रुद्रो मा विशान्तकः
तेनान्येनाप्यायस्व मृत्युर्मे पाहि
मृत्युर्मे पाहि मृत्युर्मे पाहि
तमुष्टुहि
तमुष्टुहि तमुष्टुहि
यस्विषुः
यस्विषुः यस्विषुः
सुधन् वा विश्वस्य
यो विश्वस्य यो विश्वस्य
क्षयति भेषजस्य
क्षयति भेषजस्य क्षयति भेषजस्य
यक्ष्वामहे
नमो
asuram duvasya,
asuram duvasya, asuram duvasya.
Ayam mehasto bhagavan,
ayam mehasto
taraha,
ayam me bhagavat taraha, ayam me bhagavat taraha,
ayam me,
ayam me, ayam me,
vishvabhesha joyagum,
vishvabhesha joyagum, vishvabhesha
Shiva Bhimarshanaha,
Shiva Bhimarshanaha, Shiva Bhimarshanaha.
We have now completed the 11th and the final Anuvaka of Rudram. We will revise this just now.
Sahasrani Sahasrasho Ye,
Sahasrani Sahasrasho Ye,
Rudra Adhibhumya,
Rudra Adhibhumya, Rudra Adhibhumya,
Teshagum Sahasrayo Janeva,
Teshagum Sahasrayo Janeva, Teshagum Sahasrayo Janeva,
Dhanvani Tanmase,
Dhanvani Tanmase, Dhanvani Tanmase,
Asmin Mahatyarnave Antarikshe,
Asmin Mahatyarnave Antarikshe, Asmin Mahatyarnave Antarikshe,
Bhava Adhi, Shiti Kantha,
Neelagriva
Shiti Kantha, Sharva Adha,
Sharva Adha, Sharva Adha,
Kshama Chara, Shitikantha,
Neelagriva Shitikantha, Neelagriva Shitikantha,
Divagum Rudra Upashrita,
Divagum Rudra Upashrita, Divagum Rudra Upashrita,
Ye Vrikshesu Saspinjada,
Ye Vrikshesu Saspinjara,
Neelagriva Vilohitaha,
Neelagriva Vilohitaha, Neelagriva Vilohitaha,
Ye Bhutanam Adhipatayo,
Ye Bhutanam Adhipatayo,
Vishikasakka Pardinaha,
Vishikasakka Pardinaha, Vishikasakka Pardinaha,
Ye Anneshu Vibhijyanti,
Ye Anneshu Vibhijyanti, Ye Anneshu Vibhijyanti,
Patreshu Pibato Janan,
Patreshu Pibato Janan, Patreshu Pibato Janan,
Ye Patham Pathi Rakshaya,
Ye Patham Pathi Rakshaya, Ye Patham
హరిణమృతాభ్యవ్యుధః
ఏ తీర్థాని ప్రచరంతి
శ్రీకావంతో నిషంగిణః ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావిత స్థిరే దేశాగుం సహస్రయో జనేవ ధన్వాని తన్మసే నమో రుద్రేభ్యో వాతో వర్షమిషవః తేభ్యో దశ ప్రాచీః దశ దక్షిణా దశ ప్రతీచీః దశోదీచీ దశోర్ధ్వాః తేభ్యో నమస్తే నో మృణయంతో విష్మోయశ్చ నో ద్వేష్ఠి నో ద్వేష్ఠి తం భోజం భేదధామి
తం భోజం భేదధామి తం భోజం
త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాత్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సు య ఓషధీషు रुद्रो विश्वा भुवना विवेश
यो रुद्रो विश्वा भुवना विवेश यो रुद्रो विश्वा भुवना विवेश
तस्मै रुद्राय नमो अस्तु
तस्मै रुद्राय नमो अस्तु तस्मै रुद्राय नमो अस्तु
ये ते सहस्रमयुधं पाश
ये ते सहस्रमयुधं पाश ये ते सहस्रमयुधं पाश
मृत्यो मर्त्याय हन्तवे
मृत्यो मर्त्याय हन्तवे मृत्यो मर्त्याय हन्तवे
तान् यज्ञस्य मायया
तान् यज्ञस्य मायया तान् यज्ञस्य मायया
सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा
मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा
प्राणानां ग्रन्थिरसि
प्राणानां ग्रन्थिरसि
शान्तकः
रुद्रो मामि शान्तकः रुद्रो मामि शान्तकः
तेनान्येनाप्यायस्व विष्णवे
नमो रुद्राय विष्णवे नमो रुद्राय विष्णवे
मृत्युर्मे पाहि
मृत्युर्मे पाहि मृत्युर्मे पाहि
तमुष्टुहि
तमुष्टुहि तमुष्टुहि
यस्विशुः सुधन्वा
सुधन्वा सुधन्वा
यो विश्वस्य
यो विश्वस्य यो विश्वस्य
शयति भेषजस्य
शयति भेषजस्य शयति भेषजस्य
यक्ष्वा महे
यक्ष्वामहे यक्ष्वामहे
सौ मनसाय रुद्रम्
सौ मनसाय रुद्रम् सौ मनसाय रुद्रम्
नमोभिर्देवम्
नमो असुरं दुवस्य असुरं दुवस्य
अयं मे हस्तो भगवान्
अयं मे हस्तो भगवान् अयं मे हस्तो भगवान्
अयं मे भगवत्तरः
विश्वभेषजोयगुम्
शिवाभिमर्शनः
we have completed Namakam 11 Anuvaka successfully. This is surely by Swami's grace that within such a short time, so many of us, thousands of our students here, have picked up this difficult passage from the Vedas, that is this Namakam. We will now conclude the class with Samasta Loka.
Shanti, 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 samasta loka, sukhino bhavantu, samasta loka, sukhino bhavantu, samasta loka, sukhino bhavantu. Om shanti shanti shanti.